एष रेडियो नेपाल सम्प्रति समाचारा श्रूयन्ताम् प्रवाचक चन्द्रकान्त पौडेल प्रधानमन्त्रिणः शेरबहादुर देउवा विदस्य नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य नेकपा एकीकृत समाजवादिनः अध्यक्षस्य माधव कुमार नेपालस्य च मध्ये ह्यो मेलवार्ता सम्पन्ना वर्तते। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे सम्पन्ने तस्मिन् मेलने एमसीसी सहायता परियोजनायाः संसदा अनुमोदनस्य घोषितस्य स्थानीय निर्वाचनस्य सफलतापूर्वकं सम्पादनस्य सामयिक राजनीतिश्च विषयेष् शीर्ष नेतारः व्यमृशन्। मेलने एतेषां मध्ये प्रमुख विपक्षिणः नेकपा एमाले दलस्य कारणेन विद्यमानं प्रतिनिधिसभायाः अवरोधं निवारयितुम् एकताबद्धतया अग्रेवर्धनस्य विषयेऽपि विमृष्टमासीत्। विमर्शनस्य क्रमे माओवादी दलस्य अध्यक्षेण प्रचण्डेन विपक्षिदलस्य याचनां च दृष्टिगतां विधाय श्वस्तन दिवसाय निर्धारितः प्रतिनिधिसभायाः उपवेशः एतन्मासस्य चतुर्थ दिवसाय प्रस्तावितः इति एतस्य स्वकीय सचिवः गंगादाहालः अज्ञापयत्। सत्तारूढ गठबन्धनस्य मध्ये विद्यमानायै एकतायै आगामिस्तरत्रयस्यैव निर्वाचनं यावत् निरन्तरता प्रदानस्य विषयेऽपि नेतृणां मध्ये विमृष्टमासीत्। गृहमन्त्रिणो बालकृष्ण खाण इत्यस्य अग्रेसरतायां नेत्र विक्रम चन्दस्य नेतृत्वस्य नेकपादलस्य सर्वकारस्य च मध्ये पूर्वं धृतायाः सहमतेः क्रियान्वयनाय विमृष्टं वर्तते। गृहमन्त्रालये ह्यो विहिते विमर्शने सर्वकारस्य पक्षतः गृहमन्त्री खाण विधि न्याय संसदीय विषय मन्त्री दिलेन्द्र प्रसाद बडु महान न्यायाधिवक्ता खम्म बहादुर खाती गृहसचिवः टेकनारायण पाण्डे विधि सचिवः उदयराज सापकोटा नेकपादलस्य पक्षतः खड्गबहादुर विश्वकर्मा च सहभागिनः आसन्। वार्तायां नेकपादलस्य पक्षतः प्रवक्ता विश्वकर्मा विभिन्नानाम् आन्दोलनानां क्रमे स्वदलीय कार्यकर्तृन् लक्ष्यीकृत्य पञ्जीकृतानां न्यायिक प्रकरणानां कारागारे स्थितानां कार्यकर्तृणां च विवरणं सर्वकाराय आर्पयत्। वन वातावरण मन्त्री रामसहाय प्रसाद यादव कथयति वन्यजन्तु मैत्री पूर्वाधाराणां निर्माणाय निर्मितः कार्यविधिः स्वीकृतेः चरणे वर्तते। ह्यः कञ्चनपुरस्य महेन्द्रनगरस्थिते शुक्लाफाटा राष्ट्रिय निकुञ्जे आयोजिते व्याघ्राणां गणनायाः कार्यक्रमस्य उद्घाटन समारोहे मन्त्री यादव अवदत् व्याघ्राणां संरक्षित क्षेत्रे जैविक मार्गे च वन्यजन्तु मैत्री पूर्वाधाराणां निर्माणं कृत्वा वन्यजन्तूनां संरक्षणं विशेष प्राथमिकतायां समावेश्यते। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाशरण महत कथयति सहयोगिषु सर्वेषु देशेषु समाना दृष्टि विधातव्या। यः चितवन जनपदे पत्रकारै सह प्रवक्ता डाक्टर महत अवोचत् अमेरिका देशीय सहयोग परियोजनायां दृष्टि अन्य देशानां सहयोगानां इव सम्पादनीया। द्वैविध्येन विना एमसीसी परियोजना पारिति कर्तव्येति चर्चयन् प्रवक्ता डाक्टर महत अगदत् सर्वकारेण आनीतानां प्रस्तावानां संसदि प्रस्तुतीकरणं सभामुखस्य दायित्वं वर्तते। नेपाली कांग्रेस दलस्य सहमहामन्त्री फरमुल्लाह मन्सुर कथयति संचार क्षेत्रे सबले सत्यैव लोकतन्त्रं सबलं भविष्यति। नेपाल प्रेस युनियन संघस्य 12 जनपद शाखया ह्य सिमरौनगढ़स्थाने आयोजिते कार्यक्रमे सहमहामन्त्री मन्सुर राष्ट्रस्य प्रत्येकं परिवर्तने नेपालक संचार क्षेत्रेण निरूढा भूमिका महत्वपूर्णास्ति चर्चयन् अकथयत् स्वतन्त्र संचार क्षेत्रेण विना विकास समृद्धिश्च कल्पितुं न शक्येते। राष्ट्रिय प्रजातन्त्र पार्टी दलस्य केन्द्रीय कार्य समितेः उपवेश अस्यैव फाल्गुन मासस्य एकादश दिवसे काष्ठमण्डपे वस्ता। उपवेशे स्थानीय स्तराणां निर्वाचने प्रत्याशिनां चयनार्थं नामावल्याः निर्माणस्य विषये विमृक्ष्यते इति राप्रपा दलीयो नेता सुन्दर पाण्डे असूचयत्। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः चतुर्वर्षतो द्वादश वर्षाणां वयस् समूहस्य बाल बालिकासु शीघ्रमेव कोरोना प्रतिरोधी टीकाकरणं आदास्यते। मन्त्री पौडेलः ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे विश्व स्वास्थ्य संगठनस्य परामर्शनस्य अनुसारेण चतुर्वर्षतो द्वादश वर्षाणां वयस्समूहस्य बालबालिकासु टीकाकरणं आदास्यते इति ज्ञापयन् अगदत् कोविड उनविंशतेः तृतीय लहर्याः कारणेन शिक्षाक्षेत्रं प्रभावितं सदपि शैक्षिकसत्रे प्रभावस्य असजनत्वेन टीकाकरणं आदास्यते। मन्त्री पौडेलः उच्चशिक्षा संघीय शिक्षा प्राविधिक शिक्षाधिनियमं संसदः गतिरोधस्य सहजीभवनस्य अनुपदमेव विमर्शनाय प्रेषयितुं पूर्वकार्यं विहितमस्तीति ज्ञापयन् सर्वेषु स्थानीय स्तरेषु प्राविधिक शिक्षायाः विस्ताराय उपार्जनेन सह पठनम् इति कार्यक्रमस्य प्रभावकारिरूपेण क्रियान्वयनाय च आत्मना प्रवर्तितमस्तीति अवोचत्। आराष्ट्रम ह्य अतिरिक्तेषु अष्टशते षट्त्रिंशति च जनेषु कोरोना विषाणोः संक्रमणं पुष्टीभूतं वर्तते। ह्य सहस्रम् अष्टशतम् षड्विंशतिश्च जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः सन्ति। संक्रमणेन ह्य चत्वारो जनाः मृताः। ह्यस्तनावधि संक्रमणान् मुक्तानां जनानाम् अनुपातः प्रतिशतं दशमलवैकोत्तर षण्णवतिरस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्यस्तनावधि षड्विंशति सहस्राणि शतं द्वौ च जनाः सक्रिय संक्रान्ताः सन्ति। ह्य आराष्ट्रम् लक्षद्वयम् अष्टाशीति सहस्राणि अष्टशतं सप्तत्रिंशत् जनाः कोरोना प्रतिरोधि टीकाकरणमाहितवन्त इति मन्त्रालयेन ज्ञापितं वर्तते। समाजवादी प्रेस संगठन नेपालेन अमेरिका देशीय सहयोग परियोजनायाः संविधायां स्थितानां प्रावधानानां संशोधनम् अभियाचितमस्ति। संगठनस्य सचिवालय उपवेशेन एमसीसी संहितायाः कतिचित् प्रकरणानि संशोधयितुं बलसर्जनाय निर्णीतमस्ति। नेकपा एकीकृत समाजवादी मोर्चा संगठनेन राष्ट्रहितस्य पक्षे आवश्यकं संशोधनं कृत्वा संसदः अनुमोदनाय उचित वातावरणस्य सर्जनस्य उद्देश्येन अद्य सर्वेषु जनपद मुख्यालयेषु प्रभावसर्जकं चेतनामूलकञ्च प्रदर्शनं विधातुं निर्णीतमस्ति। नेपालीनां प्रमुख श्रम गन्तव्यस्य मलेसिया देशस्य क्वालालम्पुर स्थितात् नेपाली राजदूतावासात् वैद्युत पारपत्रस्य प्रत्यक्षं पञ्जीकरण प्रक्रिया प्रारब्धा वर्तते। विभिन्नान् व्यवसायान् सञ्चालयितुं मलेसिया देशे स्थितेभ्यः नेपालीभ्यः पारपत्रं प्रदातुं प्रत्यक्षं पञ्जीकरण प्रक्रिया प्रारब्धा इति दूतावासेन ज्ञापितं वर्तते। वृत्तिपार्जनाय मलेसिया देशे लक्षद्वयादपि अधिकाः नेपालिनः सन्तीति सर्वकारस्य तथ्याङ्कः अस्ति। दूतावासेन प्रथम दिवसे एव त्रयस्त्रिंशतो जनानां वैद्युत पारपत्रस्य नवीकरणाय प्रत्यक्षं पञ्जीकरण प्रक्रिया विहिता वर्तते। थारू समुदाये प्रचलितानि झुम्रा गीतानि पश्चात्तन समये गौणीभूतानि सन्ति। नवीन सन्तत्याः आधुनिकतायां रमणानन्तरं झुम्रा गीतानि गौणीभूतानि सन्तीति हेतुः एतेषां संरक्षणाय सम्बद्ध निकायेन विशेष प्रयत्नं विधातव्यमिति थारू समुदायस्य अग्रण्यां कथनमस्तीति कैलाली जनपदात् अस्माकं संवाददाता ईश्वर साउद ज्ञापयति। रूसदेशेन युक्रेन देशः कस्मिन्नपि समये आक्रम्यते इति वितर्क्य अमेरिकादेशेन रूसस्थिताः स्वस्य देशस्य दूतावासस्य सर्वे आपत्कालिकेतराः कर्मचारिणः युक्रेन देशं त्यक्तुम् आदिष्टाः सन्ति। रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुटिन इत्यनेन सह अमेरिकादेशस्य राष्ट्रपतेः जो बाइडेन इत्यस्य मेलवार्तायाः कार्यक्रमस्यैव समये शुक्रवासरे एव अमेरिकादेशेन युक्रेन देशे विद्यमानाः स्वस्य नागरिकाः शीघ्रातिशीघ्रं स्वदेशं प्रत्यावर्तितुम् आदिष्टाः आसन् इति समाचाराः।